गीता साधक संजीवनी 17वां अध्याय श्लोक 21 से अध्याय की समाप्ति तक।
वसुदेव सुतं देवं कंसचारुरमर्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः दीयते स परिक्लिष्टं तद्दानं राजसंस्मृतं परेशकाले यद्दानमपात्रेभ्यश्च दीयते असत्कृतमवज्ञातं तत्तामसमुदाहितम् ॐ तत्सदिति निर्देशो ब्राह्मणास्ति विधस्मृता ब्राह्मणास्तेन वेदास्तु यज्ञश्च विहिता पुरा तस्माद्भूमेत्युदासेत्य यज्ञदानतपक्रिया प्रवर्तन्ते विधानोक्ता सततं ब्रह्मवादिनां तदित्यनभिसन्धाय फलं यज्ञतपक्रिया दानक्रियाश्च विविधा क्रियन्ते मोक्षकाङ्क्षिभिः सद्भावे साधुभावे च सदिचेत प्रयोज्यते रसस्ते कर्मणि तथा सच्छब्दः पार्थयोज्यते यज्ञे तपसि दाने च स्थिति सदिति चोच्यते कर्म चैव तदर्थीयं सदित्येवाभिधीयते अश्रद्धयाहुतं दत्तं तपस्तप्तं कृतं च यत् असदित्योच्यते पार्थो न सुतप्रीत्यनुह्य अश्रद्धयाहुतं दत्तं तपस्तप्तं कृतं च यत् असदित्योच्यते पार्थो न सुतप्रीत्यनुह्य न च
तत्सर्वश्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धार्थविभागयोगो नाम सप्तदशः।
वसुदेव सुतं देवं कंसचारुरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्।